ॐ हिरण्यगर्भसमवर्तताग्रे भूतस्य जातपतिरेक आसीत् सदा दारपृथिवीम् जामुते माम् कस्मै देवाय हविषा विधेम यात्मदा बलदायस्य विश्वमुपासते प्रशिशं यस्य देवाः यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो महित्वैकयिद्राजा जगतो बभूव यैषे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रसया सहाहुः यस्येमा प्रदिशो यस्य बाहुः कस्मै देवाय हविषा विधेम ये नद्यो रुग्रा पृथिवी च दृढा येन स्वस्थभितं येन नाकः यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम यं क्रन्दसि अवसातस्तभानि अभ्येक्षेताम् मनसा रेजमाने यत्राधिसूर उदितो विभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहतेर्विश्वमायन् गर्भम् दधान जनयतेरग्निम् ततो देवानाम् समावर्तता सुरेक कस्मै देवाय हविषा विधेम यश्चिदापो महिना पर्यपश्यद्दक्षम् दधान जनयन्ति यज्ञम् यो देवेष्वधिदेव एक आसीत् कस्मै देवाय हविषा विधेम मानो हिंसे जनिताय पृथिव्यायो वादिवम् सत्यधर्मा जजान यश्चापश्चन्द्रा बृहते जजान कस्मै देवाय हविषा विधेम प्रजापतेन त्वदेतान्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् स्यामपतयोरयीणा।